अथ सप्तदशोऽध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषाम् निष्ठा तु का कृष्ण सत्त्वमाहोरजस्तमः श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा सात्विकी राजसिश्चैव तामसी चेति ताम् शृणु सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धामयोऽयम् पुरुषो यो यः श्रद्धः स एव सः यजन्ते सात्विका देवान् यक्षराक्षसि राजसाम् प्रेतभूतगणांश्चान्ये यजन्ते तामसा जनः अशास्त्रविहितम् घोरम् तप्यन्ते ये तपो जनः दम्भाहङ्कारसंयुक्ताः कामरागबलन्विताः कर्षयन्तः शरीरस्थम् भूतग्राममचेतसः मांश्चैवान्तशरीरस्थम् तान्विध्यासुरनिश्चयान् आहारस्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानम् तेषाम् भेदमिमाम् शृणु आयुसत्त्वबलारोग्य सुखप्रीतिविवर्धनाः रस्यास्निग्धा स्थिरारित्या आहारः सात्विकः प्रियाः कट्वम् ललवण अति उष्ण तीक्ष्णरुक्षविदाहिनः आहारा राजसा श्रेष्ठा दुःखशोकमयप्रदाः यातयामम् गतरसम् भूतिपर्युषितम् च यत् उच्छिष्टमपि चामेध्यम् भोजनम् तामसप्रियम् अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इच्छते यष्टव्यमेवेति मनः समाधाय स सात्विकः अभिसन्धाय तु फलम् दम्बार्थमपि चैव यत् इच्छते भरतः श्रेष्ठ तम् यज्ञम् विधिराजसम् विधिहीनम् असृष्टान्नम् मन्त्रहीनमदक्षिणम् श्रद्धाविरहितम् यज्ञम् तामसम् परिचक्षते देवद्विजगुरुः प्राज्ञ पूजनम् शौचमार्जवम् ब्रह्मचर्यम् अहिंसा च शारीरम् तप उच्यते अनुद्वेगकरम् वाक्यम् सत्यम् प्रियहितम् च यत् स्वाध्यायाभ्यासनंश्चैव वाङ्मयम् तप उच्यते मनः प्रसादसौम्यत्वम् मौनमात्मविनिग्रहः भावशंशुधिरित्येत तपोमानसमुच्यते श्रद्धया परया तप्तम् तपस्तत्त्रिविधम् नरैः अफलाकाङ्क्षिभिर्युक्तैः सात्विकम् परिचक्षते सत्कारमानपूजार्थम् तपोदम्भेन चैव यत् क्रियते तदिह प्रोक्तम् राजसंश्चलमध्रुवम् मूढग्राहेणात्मनो यत् पीडया क्रियते तपः परस्योत्सादनार्थम् वा तत्तामसमुदारतम् दातव्यमिति यद्दानम् दीयतेऽनुपकारिणे देशे काले च पात्रे च तद्दानम् सात्विकम् स्मृतम् यत्तु प्रत्युपकारार्थम् फलमुद्दिश्य वा पुनः दीयतेश्च परेक्लिष्टम् तद्दानम् राजसंस्मृतम् अदेशकाले यद्दानम् अपात्रेभ्यश्च दीयते असत्कृतम् अवज्ञातम् तत्तामसमुदारतम् ॐ तत्सदिति निर्देश्यो ब्रह्मणस्त्रिविदः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता पुरा तस्मादोमित्युदारित्य यज्ञदानतपः क्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनां तदित्यानभिसन्धाय फलं यज्ञतपः क्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः सद्भावे साधुभावेश्च सदित्येतत्प्रयुज्यते प्रशस्ते कर्मणि तथा सशब्दः पार्थयुज्यते यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते कर्मश्चैव तदर्थीयम् सदित्येवाविधीयते अश्रद्धयाहुतम् दत्तम् तपस्तप्तम् कृतम् च यत् असदित्युच्यते पार्थ न च तत्प्रीत्यनो इह ॐ तत्सदिति श्रीमद्भगवद्गीतासोपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।